इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य सिलवासा दमनदीव दादरा नगर हवेलीषु च सप्ताशीत्युत्तर पञ्चशताधिक द्विसहस्र कोटि रूप्यकाणां परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। अधुना प्रधानमन्त्री सूरत खाद्य सुरक्षा संतृप्ति अभियानस्य आरम्भार्थं गुजरातस्य सूरानगरे अस्ति। केन्द्रीय गृहमन्त्री अमितशाह तमिल सहित क्षेत्रीय भाषाणां प्रचारार्थं सर्वकारस्य प्रतिबद्धतां पुनः एकवारं सबलं स्मारितवान्। जन औषधि दिवस अद्य सम्पूर्णे देशे अल्पमूल्य चिकित्सातन्त्रस्य तथा च जनानां मध्ये औषधानां जागरूकता सन्दर्भे परिपाल्यते। अमेरिकीय सर्वोच्च न्यायालयेन 26/11 मुम्बई आतंक्याक्रमणस्य आरोपिणः तहव्वुर राणा इत्यस्य भारतं प्रत्यार्पणं विरुध्य याचिका अस्वीकृता। अपि च बैडमिंटन क्रीडायां भारतस्य आयुष शेट्टी फ्रांस देशस्य अर्लियंस मास्टर्स सुपर 300 इत्यस्याः क्रीडायाः पुरुषेकल प्रागुपान्त्य चक्रीय क्रीडायां प्रविष्टः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य सिलवासा दमनदीव दादरा नगर हवेलीषु च सप्ताशीत्युत्तर पञ्चशताधिक द्विसहस्र कोटि रूप्यकाणां परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। श्रीमोदी सिलवासानगरे सार्ध चतुश्शत शय्यायुतस्य नमो चिकित्सालयस्य अनुसन्धान केन्द्रस्य च उद्घाटनं कृतवान्। एतेन सममेव सः केन्द्रशासिते प्रदेशे सार्ध सप्तदश शत कोटि रूप्यकाणां 25 परियोजनानां उद्घाटनं कृतवान्। अस्मिन् अवसरे श्रीमोदिना 13 परियोजनानां शिलान्यासः अपि कृतः, यासु दमन नगरे 103 शय्यायुतस्य मारवाड़ चिकित्सालयस्य चतुर्खण्डानां निर्माणं, खानवेल नगरस्य उपजनपद चिकित्सालयस्य निर्माणं, दमन नगरे राष्ट्रिय राजमार्गस्य 48/100 V इत्यस्य विस्तारः, दमनदीव इत्यत्र च 12 नवीन विद्यालयानां निर्माणं, मार्ग विकासः च अन्तर्भवति। प्रधानमन्त्री सूरत खाद्य सुरक्षा संतृप्ति अभियानस्य आरम्भार्थं गुजरातस्य सूरानगरे अस्ति। प्रधानमन्त्री गरीब कल्याण अन्न योजनायाः अन्तर्गतं सूरते प्रायः 2,00,000 लाभार्थिनः अस्य अभियानस्य लाभं प्राप्स्यन्ति। श्वः अन्ताराष्ट्रिय महिला दिवसस्यावसरे श्रीमोदी नवसारी नगरे लखपति दीदी सम्मेलने भागं ग्रहीष्यति। प्रधानमन्त्री 25,000+ स्वसहायता समूहेभ्य 2,50,000 महिलाभ्य 4,25,00,000 रूप्यकाणां सहायतां वितरिष्यति। केन्द्रीय गृहमन्त्री अमितशाह तमिल सहित क्षेत्रीय भाषाणां प्रचारार्थं सर्वकारस्य प्रतिबद्धतां पुनः एकवारं सबलं स्मारितवान्। ठाकोट कोलाम नगरे CISF संस्थायाः 56वें स्थापना दिवसावसरे भाषमाणः श्रीशाह तमिलनाडु नगरस्य समृद्ध सांस्कृतिक न्यासस्य संरक्षणस्य महत्वं बोधयन् राज्यस्य भाषा सांस्कृतिक न्यासं च सम्मानयितुं प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नान् सप्रकाशं वर्णितवान्। तेन केन्द्रसर्वकारस्य क्षेत्रीयभाषाणां यथा तमिलप्रभृतीनां केन्द्रीयसशस्त्रारक्षिबलानां परीक्षासु समायोजनस्य पदक्रमः अपि सविशेषं चर्चितः। सः अवदत् यत् तमिलभाषा संस्कृतिः परम्पराः च भारतीय संस्कृतेः बहुमूल्यरत्नानि सन्ति। तेन तमिलनाडोः मुख्यमन्त्री M.K. स्टालिन इति निवेदितः यत् तमिलनाडुसर्वकारेण तमिलभाषायां चिकित्सा अभियान्त्रिकी पाठ्यक्रमाः यथाशीघ्रं प्रारम्भाः कर्तव्याः। तेन न केवलं तमिलजनानां मूलं सुदृढं भविष्यति, अपितु विविधक्षेत्रेषु समानावकाशाः अपि प्राप्स्यन्ते। गृहमन्त्री पुनर्बलं प्रदाय एतद्विषयं स्मारितवान् यत् प्रधानमन्त्रिणः लक्ष्यमस्ति 27,000+ तमवर्षं यावत् भारतं विश्वस्य तृतीय बृहत्तम अर्थव्यवस्थारूपेण स्थिरं भवेत्।
हमारे प्रधानमंत्री जी ने 2027 तक देश को दुनिया की तीसरी सबसे बड़ी अर्थव्यवस्था बनाना और 47 में एक ऐसे राष्ट्र का निर्माण करना जो दुनिया में सर्वप्रथम हो, ये दोनों संकल्प 140 करोड़ की आबादी के सामने रखे हैं। उस संकल्पों की सुरक्षा में, इस संकल्पों की सिद्धि के लिए सीआईएसएफ का योगदान बहुत महत्वपूर्ण है।
श्री शाह एतदपि विषयं प्रकाशितवान् यत् सीआईएसएफ राष्ट्रस्य मुख्य संयंत्राणां रक्षणे महत्वपूर्णं योगदानं यक्षति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जन औषधि दिवसः अद्य सम्पूर्णे देशे अल्पमूल्य चिकित्सातन्त्रस्य तथा च जनानां मध्ये औषधानां जागरूकता सन्दर्भे परिपाल्यते। प्रधानमन्त्री भारतीय जन औषधि परियोजनायाः उद्देश्यं सम्पूर्णे भारते उत्तम गुणवत्तायुक्त औषधीनां अल्पमूल्य युक्तानां च सामान्य जनं प्रति प्रापणमस्ति। रसायनोर्वरक मन्त्रालयेन अस्य उद्देश्यस्य सम्पूर्णे देशे प्रचाराय साप्ताहिकाः कार्यक्रमाः गतिविधयः च विचारिताः सन्ति। स्वसन्देशे प्रधानमन्त्री श्रीनरेन्द्रमोदी उक्तवान् यत् जन औषधि इति उपक्रमः सर्वकारस्य सामान्यजनं यावत् उत्तम औषधानाम् अल्पमूल्येन प्रापणम् इति प्रतिबद्धतां प्रदर्शयति। एकस्मिन् सामाजिकतन्त्र सन्देशमाध्यमेन श्रीमोदी प्रकाशितवान् यत् कथं देशस्य प्रत्येकं कोणं यावत् औषधानि प्राप्यन्ते। केन्द्रीय स्वास्थ्यमन्त्री जगत् प्रकाश नड्डा स्वसन्देशे उक्तवान् यत् देशे 15,000+ जन औषधि केन्द्राणि प्रतिदिनं 10,00,000+ जनान् सेवन्ते। एतेषु केन्द्रेषु उपलभ्यमानानि औषधानि 85-90% यावत् अल्पमूल्येषु दीयन्ते।
प्रधानमंत्री जन औषधि परियोजना पीएम बीजेपी ने अच्छी भी और सस्ती भी के संकल्प के साथ लोगों तक उच्च गुणवत्ता वाली किफायती दवाएं पहुंचाने का काम किया है। आज 15,000 से ज्यादा जन औषधि केंद्र देश भर में काम कर रहे हैं। 2027 तक प्रधानमंत्री मोदी जी के नेतृत्व में यह तय हुआ है कि 25,000 जन औषधि केंद्र खोलने का लक्ष्य रखा गया है।
केन्द्रीय स्वास्थ्य राज्य मंत्री अनुप्रिया पटेल अवदत् यत् प्रधानमंत्री भारतीय जनऔषधि परियोजना स्वास्थ्य क्षेत्रे वरदान भूता एव सिद्धा जाता अस्ति।
डिपार्टमेंट ऑफ फार्मास्यूटिकल्स के द्वारा जन औषधि जन चेतना सप्ताह का आयोजन किया जा रहा है, जिसके अंतर्गत विविध प्रकार की गतिविधियों के माध्यम से उसकी उपयोगिता और उसके लाभ के संबंध में आम जनमानस को जागरूक करने की ये कवायद की जा रही है।
प्रधानमंत्री नरेन्द्र मोदी अद्य कोविड 19 महामारी काले तस्य नेतृत्वाय बहुमूल्य सहायतायै च बार्बाडोस देशेन फ्रीडम ऑफ बार्बाडोस पुरस्कार यः प्रदत्तः आसीत् तदर्थं तत्रत्य सर्वकारस्य जनानां च आभारं प्रकटितवान्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे श्रीमोदिना उक्तं यत् सम्पूर्ण भारतीय जनेभ्यः भारत बार्बाडोस देशयोः सुदृढ सम्बन्धाय च अयं पुरस्कारः समर्पितः। अमेरिकीय सर्वोच्च न्यायालयेन 26/11 मुंबई आतंक्याक्रमणस्य आरोपिणः तहव्वुर राणा इत्यस्य भारतं प्रत्यार्पणस्य विरुद्धं याचिका अस्वीकृता। पाकिस्तान मूलस्य कनाडा देशीयः तहव्वुरः अमेरिका देशस्य सर्वोच्च न्यायालये स्थातुम् आपत्कालीन स्थगनावेदनं प्रदत्तवान् आसीत्। सः स्वस्य याचिकायाम् उक्तवान् यत् भारते तस्य प्रत्यार्पणेन अमेरिका देशस्य विधेः संयुक्तराष्ट्र अमेरिका देशस्य यातना विरुद्ध सन्धेः च उल्लंघनं भविष्यति। बैडमिंटन क्रीडायां भारतस्य आयुष शेट्टी फ्रांस देशस्य आर्लियंस मास्टर्स सुपर 300 इत्यस्याः क्रीडायाः पुरुषेकल प्रागुपान्त्य चक्रीय क्रीडायां प्रविष्टः। अद्य सायंकाले प्रागुपान्त्यचक्रीय क्रीडायां सः डेनमार्क देशस्य रास्मस गेमके इत्यमुं सम्मुखीकरिष्यति इति वार्ताः।